इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य इटली देशस्य अपूलिया नगरे समायोक्ष्यमाणे जी सप्त शिखर सम्मेलने भागं भजिष्यति। असौ इटली देशस्य प्रधानमन्त्रिणः जॉर्जिया मेलोनी इत्यस्याः निमन्त्रणे ह्यः रात्रौ इटली देशं द्विदिवसीय यात्रार्थं सम्प्राप्तवान्। यात्रेतर विषयेष् श्रीमोदी जी सप्त देशानां नेतृभिः अथ च अन्ताराष्ट्रिय संघटनैः सह द्विपक्षीयोपवेशनं विधास्यति। अवधेयं वर्तते यत् जी सप्त देशेष् इटली, जापान, कनाडा, फ्रांस, जर्मनी, ब्रिटेन, अमेरिका देशाः समाविष्टाः सन्ति। स्वकीये प्रस्थान वक्तव्ये प्रधानमन्त्री उक्तवान् यत् तस्य प्रशासनं भारत इटली देशयोः रणनीतिक सहभागित्वं सुदृढीकर्तुं भारत प्रशान्त भूमध्य सागरीय क्षेत्रेभ्यः सहयोगं वर्धयितुं प्रतिबद्धम् अस्ति। श्रीमोदी पुनः निगदितवान् यत् असौ प्रसन्नचितो जातः यतोहि सततं तृतीये कार्यकाले तस्य प्रथमा यात्रा जी सप्त शिखर सम्मेलनाय वर्तते। लोकसभा अध्यक्ष निर्वाचनं जून मासस्य षड्विंशे दिनांके समनुष्ठीयते। अष्टादशतम्याः लोकसभायाः प्रथमं सत्रं अस्य मासस्य चतुर्विंशे दिनांके आयोजयिष्यति। सत्रावधौ नवनिर्वाचित सदस्यानां शपथवचनं प्रतिज्ञानं च भविष्यति। एतस्मिन् नवीन सत्रे राष्ट्रपतिनः द्रौपदी मुर्मू इत्यस्याः लोकसभा राज्यसभयोः संयुक्तोपवेशनार्थं सम्बोधनम् एकं भविष्यति। अभिभाषणे च चर्चा प्रचलिष्यति। अस्य मासस्य सप्तविंशे दिनांके राज्यसभासत्रं समारप्स्यति। एतत् संसत्सत्रम् आगामि मासस्य तृतीय दिनांके अवसीयते। शिक्षा मन्त्रालयेन विशिष्टावश्यकता पूरकेभ्यः सर्वेभ्यः बालेभ्यः अनिवार्य शिक्षायाः अधिकारस्य अथ च प्रधानमन्त्री पोषणस्यान्तर्गतं निःशुल्क पोषण सम्बद्ध साहाय्यं सुनिश्चेतुं सकलेभ्यः राज्येभ्यः केन्द्रशासित प्रदेशेभ्यश्च एकः दिङ्निर्देशः प्रख्यापितः। मन्त्रालयेन स्पष्टीकृतं यत् सर्वकारीयेष् उत वा सर्वकारीय साहाय्य प्राप्त विशिष्ट विद्यालयेष् अध्ययनरतेभ्यः विशिष्टावश्यकता संवलितेभ्यः समग्रेभ्यः बालेभ्यः निःशुल्करूपेण अपि च अनिवार्य शिक्षाधिकारः प्रदद्यात्। येष् निःशुल्कं विद्यालयीय समवस्त्रं पाठ्यपुस्तकानि प्रधानमन्त्री पोषण योजनान्तर्गतं मध्याहन भोजनं च समाविष्टं वर्तते। नीट यूजी परीक्षायां संलग्नानां सर्वेषां त्रिषष्ट्यधिक पञ्चशतोत्तरैक सहस्राभ्यर्थीनां पुनः परीक्षा अस्य मासस्य त्रयोविंशतिः दिनांके भविष्यति। ये परीक्षायां प्रतिपूरक अंकाः उत वा कृपाङ्काः प्राप्ताः सन्ति। एकस्यां प्रसारिताधिसूचनायां राष्ट्रिय परीक्षणाभिकरणस्य कथनम् अस्ति यत् एतत् शीघ्रमेव सार्वजनिक सूचनां प्रसारयिष्यति तथा च एतेषाम् अभ्यर्थिनां कृते ईमेल माध्यमेनापि सम्पर्कं करिष्यति यत्ते आधिकारिक संचारं प्राप्नुवन्ति इति सुनिश्चितं करिष्यति। एनटीए इत्यनेन प्रोदीरितं यत् एनटीए उच्चसमितेः प्रतिवेदने सर्वोच्च न्यायालयस्य आदेशानुसारं पुनः परीक्षणस्य निर्णयः कृतः अस्ति। सर्वेषां त्रिषष्ट्यधिक पञ्चशतोत्तरैक सहस्राभ्यर्थीनां कृते प्रदत्ताः अनुग्रहाः अथवा प्रतिपूरक अंकाः प्रत्यावर्तिताः सन्ति। आईसीसी इत्यस्यां पुरुषाणां विंशतिः प्रतिविंशतिः विश्व चषक क्रिकेट प्रतिस्पर्धायां बांग्लादेशदलेन नेदरलैण्ड दलं पञ्चविंशतिः धावनांकैः पराजितम् इति वार्ताः।